अथ हितोपदेशः। स्मर कृष्णं भज हरिं नम विष्णुं श्रयाच्युतं त्यज कामं जहि क्रोधं जहि मोहं भवालयं शृणु शौरिकथाः पुण्याः पश्य श्रीपतिविग्रहं जिघ्रश्रीपादतुलसी स्पृश वैकुण्ठवल्लभं भुङ्क्ष्व केशव नैवेद्यं तिष्ठ माधव मन्दिरे जप नारायणमनुं पठतन्नाम मङ्गलं पाहि प्रपन्न जनतां ब्रूहि तथ्यं हितं नृणां देहि काङ्क्षितमर्थिभ्यो याहि सज्जनसङ्गतिं कुरु भूतदयां नित्यं चरधर्ममहर्निशम् जानीहि नित्यमात्मानमवेह्यन्यद्धिनश्वरम् पञ्चश्लोकीमिमां शश्वत्पठधारय चिन्तय एतावान् सर्ववेदार्थः समासेन निरूपितः नास्ति नारायणसमं न भूतं न भविष्यति एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् अक्षोभ्यतीर्थमुनिना निजशिष्यहितैषिणा वेदसारमिदं प्रोक्तं प्रीत्यै माधवमध्वयोः। इति श्री अक्षोभ्यतीर्थविरचितः हितोपदेशः।